अध्वर्यवारुणम् दुग्धवंशम् युहोतनमृढवायक्षिदीनाम् गौराद्वेदीयाङ्गपानमिन्द्रो विश्वाहेत्यादिसुतरोमिचरन् यद्दिवेदिवारुमन्नम् दिवे दिवे भीतिमिदस्य वक्षि ृन्द्रीगान्वाहिमानस्वमङ्गलहसेवमाहिमानामुवाच येन्द्रवप्राभोर्वान्तरिक्षम् युधा देवेभ्योवरीवस्वत्त ोधयामरो मन्यमानाम् साक्षाभरान् बाहुभिश्वासदानान् यद्वानृहर्मृता इन्द्राभिरुद्ध्यास्तम् त्वयादिम् सौस्रभसम् जायेम प्रेन्द्रस्य मोदम् रहमाग्राणि मनोदानामघवायाचकार भवत्येवस्योमोऽस्यम् विश्वस्य गवामसिपतिरेकायन्द्रभक्ष्मही ते प्रजातस्वाः ृहस्पदेवमिन्द्रस्य भक्तम् गृहन्तुरे कीर्तये ऋज्यूयम् पादस्वस्तिभिः सदानः